सर्वेभ्यो नमस्कारः. गतवर्गे वयं षष्टिविभक्ति इति विषये किञ्चित् अभ्यासं कृतवन्तः. तत्र षष्टिविभक्ति कृष्णः कृष्णस्य, गान्धारी गान्धार्याः, रामः रामस्य इति तादृशः प्रयोगः भवति. वयं षष्टिविभक्ति बहुत्र उपयोगं कर्तुं शक्नुमः. तस्य रूपं किञ्चित् दृष्टवन्तः. तस्य प्रयोगः कीदृशः इति अग्रे पश्यामः. प्रथमतया पुनःस्मरणार्थं किञ्चित् पश्यामः. तत्र रामः इति शब्दस्य षष्टिविभक्तिरूपं किं किं भवति? शोभा भगिनी, एकवचने, द्विवचने, बहुवचने?
आम् महोदय, एकवचने. षष्टि रामस्य, रामयोः, रामाणां.
रामाणाम् इति अस्ति. समीचीनं भगिनी. गीताञ्जलि भगिनी, गणेशः इति तस्य षष्टिविभक्ति?
गणेशस्य, गणेशयोः, गणेशाणां.
गणेशानां. तत्र नकारः एव अस्ति भगिनि.
गणेशानां,
गणेशानाम् इति अस्ति. समीचीनम्. उषा भगिनि, शिवः?
शिवः, शिवस्य, शिवयोः, शिवानां.
शिवानाम् इति अस्ति. अस्तु. बानचेतनी महोदय, कृष्णः?
कृष्णस्य, कृष्णयोः, कृष्णानां.
कृष्णानां, कृष्णानां. रघुपति महोदय, धनिकः?
धनिकः, धनिकस्य, धनिकयोः, धनिकानां.
धनिकानां. वेणुगोपाल महोदय, चालकः?
चालकः, चालकस्य, चालकयोः, चालकानां.
नरेश महोदय, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. कृषिकः षष्टिविभक्ति?
कृषिकस्य, कृषिकयोः, कृषिकानां.
कृषिकाणां. समीचीनं महोदय. अस्तु. तत्र इति अस्ति षष्टिविभक्तिरूपं. तस्य अकारान्तपुल्लिङ्ग एव इदानीं वयं कृतवन्तः. तत्र आकारान्त अपि स्त्रीलिङ्ग, तदपि पुनःस्मरणार्थं कुर्मः. तत्र शोभा भगिनी, पुनः सीता इति.
क्षम्यता महोदय, किं
सीता? सीता
षष्टिविभक्ति,
षष्टिविभक्ति, षष्टिविभक्ति सीतापदस्य.
सीतायाः, सीतयो, सीतायोः, सीतानां.
सीतानाम् इति. समीचीनं भगिनि. गीताञ्जलि भगिनी, वाणी इति? क्षम्यताम्, आकारान्त एव स्वीकुर्मः. तत्र आकारान्त किं किं? सुभद्रा. सुभद्रा,
सुभद्रायाः,
सुभद्राणाम्. अस्तु.
महोदय, एक संशय. कृष्ण, कृष्णाणां.
कृष्णानां, नाम इति अस्ति. तत्र शकारः अस्ति, शकारः अस्ति खलु, मूर्धन्यशकारः अस्ति. कुत्र
नकारः अस्ति? मध्ये नकारः अस्ति.
नकारः अस्ति, नकारः, शकारः अपि नकारस्य मध्ये. गीताञ्जलि भगिनी, कृष्णानाम् इति पदं पश्यतु. तत्र नकारः अस्ति, शकारः अस्ति, मध्ये किं किम् अस्ति इति द्रष्टव्यमस्ति खलु. कृष्णानां, तत्र कृष्णानां, तत्र मध्ये शकारः अपि नकारस्य मध्ये नकारः अस्ति. नकारः कस्मिन् वर्गे अस्ति? नकारः, नकारः
बाधा.
बाधा अस्ति, टवर्गीय अस्ति इति कृत्वा तत् कवर्गः नास्ति पवर्गः नास्ति अतः तत् नकारः किं करोति बाधा भवति अतः तस्य अनन्तरं यद् नकारः आगच्छति तद् नकारः एव तिष्ठति
यतः कृष्णानाम्
अतः कृष्णाना कृष्णानाम् एव भवति किन्तु कृष्णानाम् प्रश्नः समीचीनः अस्तु भगिनि गीताञ्जलि भगिनि भवती एव एतत् करोतु किं बालिका
बालिकानां
बालिकानां तत्र नकारः नास्ति खलु केवलं बालिकानाम् एव षष्टिविभक्ति बालिकानाम् इति अस्तु वेणुगोपाल् महोदय
सेविकयोः सेविकानां
सेविकानाम् अस्तु शोभा भगिनी भवती कृतवती वा आकारान्त
आं महोदय
अस्तु बानचेतनी महोदय उमा इति
उमायाः उमयोः उमानाम्
उमानाम् इति समीचीनं अस्तु
नमस्ते महोदय नमस्ते महोदय अहं प्रिया अस्मि अहमपि विलम्बेन आगतं क्षम्यतां
नमस्कारः भगिनि चिन्ता मास्तु भगिनि अस्तु तत्र अन्यत् किमपि
कः पुटः
वयं पुस्तके एक इदानीं त्रयोविंशति 23 षष्ठी विभक्ति इति विषयः अस्माकं विषयः केवलं पुनस्मरणार्थम् अकारान्त वा आकारान्त इति तस्य तादृशपदस्य विभक्ति रूपं कीदृशं भवति इति चर्चयामः तावदेव अस्तु अस्तु
अहं वदामि महोदय
वदतु
गीता गीतायाः गीतयोः गीतानाम्
अस्तु 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 एतत् कुर्मः तत्र सर्वे अपि एकम् वदतु अहं पृच्छामि किमपि पदं चित्वा तस्य षष्टिविभक्तिरूपम् एकवारं वदतु अस्तु रघुपति आचार्य महोदय किमपि पदं अकारान्त इकारान्त पुल्लिङ्ग स्त्रीलिङ्ग
अकारान्त आकारान्त गङ्गा आकारात गङ्गा गङ्गायाः गङ्गायोः गङ्गानाम्
द्विवचने किम् अस्ति महोदय
गङ्गयोः
गङ्गयोः समीचीनं महोदय एकमेव तावदेव एकमेव अस्तु नरेश महोदय
यमुनायाः यमुनयोः यमुनानां
समीचीनं महोदय अस्तु गीताञ्जलि वंशी सुधा भगिनी
आं महोदय किं वदामि महोदय
स्त्रीलिङ्गन्त आकारान्त स्त्रीलिङ्गपदम् अथवा इकारान्त स्त्रीलिङ्गपदं किमपि चित्वा
राधायां राधयोः राधानां
राधायाः
राधयोः राधयोः राधानां
राधानां राधानां समीचीनं भगिनि प्रिया भगिनी स्त्रीलिङ्गपदं किम्
महिला महिलायाः महिलयोः महिलानां तरुण्याः तरुण्योः तरुणीनां
तरु इति अस्तु तरु इति
तरु तरुण महोदय तरुणी
तरु अस्तु
इदानीं बालिका उकारान्त न तरुणी इति ईकारान्त स्त्रीलिङ्ग बालिका यङ्ग् गर्ल् न
तरुणी वा
तरुणी
तरुणी
तरुण्याः तरुण्योः तरुणीनां
तरुणीनाम् अस्तु समीचीनं भगिनि धन्यवादः अस्तु अन्य कोऽपि वक्तुम् इच्छति वा केवलं पुनस्मरणार्थम् एतत् कुर्मः अत्र
महोदय एकः प्रश्नः अस्ति रक्षा रक्षायाः रक्षाणां रक्षाणां महोदय
तत्र रक्षाणाम् एव भवति तत्र तत्र षकारः अस्ति इति कृत्वा पदे क्ष इति अक्षरे तत्र षकारः अस्ति मूर्धन्यषकारः अस्ति अस्तु इदानीं
महोदय एकम् अत्र षष्ठीविभक्त्यां स्त्रीलिङ्गे आकारान्त अस्ति रमा द्विवचने सदा ह्रस्व भवति आकारस्य दीर्घाकारस्य ह्रस्व आकारः भवति सदा सर्व
रमयोः इति एव भवति सत्यं महोदय एकवचने बहुवचने दीर्घ आकारः तिष्ठति किन्तु द्विवचने ह्रस्व आकारः भवति सत्यं महोदय
महोदय एक प्रश्नः अस्ति त्रयोदशपुटे उपरि लिखितानि एतानि रूपाणि पुनः पुनः उच्चैः पठत जानीत च जानीत किं लिङ्गम् अस्ति महोदय
जानीत क्रियापदम् अस्ति
क्रियापदं लैक् जानति जानतः जानन्ति
न जानीत पठत जानीत इति वयं अग्रे गत्वा पश्यामः पठत जानीत इति कोऽपि वक्तुम् इच्छति वा कीदृशलकारः अस्ति एतत्
मध्यमपुरुष बहुवचन अस्ति
पठतु पठतां पठन्तु पठ पठतं पठत पठानि पठाव पठाम इति लोट्
आत्मनेपदे अतः जानीत
सत्यं 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 किन्तु तत् लोट् लकार पठत इति तस्य रूपम् अहम् उक्तवान्
लट् लकार मध्ये जानाति अस्ति महोदय
जानाति इति
जानाति जानातः जानन्ति
तादृशरूपम् अस्ति अग्रे पश्यामः इति मन्ये भगिनि अथवा दृष्टवन्तः वा न जानामि प्रायशः दृष्टवन्तः
महोदय ऊकारान्त स्त्रीलिङ्गपदं श्वश्रु षष्टिविभक्ति
तत् इदानीम् आगच्छति भगिनि इदानीमेव अग्रिमपुटे एव अस्ति तत् वयं न कृतवन्तः तत् ऊकारान्त श्वश्रु तदपि सत्यं तद् किन्तु तद् तादृशः किञ्चित् दत्तमस्ति भगिनि अग्रिमपुटे किञ्चित् दत्तमस्ति अत्र यादृशं कोष्टकं त्रयोदशपुटे अस्ति तादृशकोष्टकं रूपस्य नाशस्य न किन्तु भवन्तः रचयितुं शक्नुवन्ति यत् कोष्टकं त्रयोदशपुटे अस्ति तत् स्वीकृत्य एकमेकं तस्य षष्ठीविभक्तिरूपं लिखित्वा नूतनकोष्टकं रचयितुं शक्नुवन्ति भवन्तः किन्तु तद् अग्रे अन्यानि रूपाणि अग्रे पश्यामः एतावत् वयं केवलम् अकारान्तपुल्लिङ्ग आकारान्तस्त्रीलिङ्ग ईकारान्तस्त्रीलिङ्ग अपि अकारान्तनपुंसकलिङ्ग तद्दृष्टवन्तः अपि यद् कोष्टकं पुटसङ्ख्या 23 तत्र अस्ति तदेव वयं दृष्टवन्तः एतावत् अग्रे गत्वा अन्यानि रूपाणि अपि पश्यामः किन्तु इदानीं पुनस्मरणं जातम् इदानीं गृहपाठं कुर्मः गृहपाठः कः इति कः वदति को वदति
षष्ठीविभक्तिस्य एकवचनं त्रिलिङ्ग यापुंलिङ्ग नपुंसकलिङ्ग
हा अस्तु प्रथमविभक्तिरूपं वक्तव्यमस्ति अस्तु अस्तु हा अस्तु कः प्रथमम् अस्तु उषा भगिनी भवती एव प्रथमं करोति वा
आं महोदय बुद्धेः भेदः न जननीयः त्रिलिङ्ग मतिष्ठः लैक् मतिः बुद्धिः ईकारान्त त्रिलिङ्ग बुद्धिः शब्दः
अस्तु भगिनि समीचीनं हा नरेश महोदय अग्रिमं
महोदय एक रिक्वेस्ट् त्रीणि रूपाणि यदि भवती वक्तुम् इच्छति चेत् सम्यक् एव भवति अभ्यासः एव भवति अहं चिन्तयामि
कुत्र भगिनि
बुद्धिः त्रीणि रूपाणि बुद्धिः बुद्धि बुद्धयः इति त्रीणि वचनानि
अस्तु भगिनि यदि इच्छन्ति चेत्
चिन्तयामि
किन्तु अत्र केवलं षष्ठीरूपस्य यदि वयं तस्य षष्टिविभक्ति तद् पदस्य किमपि पदमस्ति तद् षष्ट्यन्तं षष्टिविभक्त्यन्तम् अस्ति इति तस्य ज्ञानं भवति न वा इति प्रश्नः
तावदेव
अस्तु अग्रिमं नरेश महोदय
धनोः पुत्रः दानवः धनोः षष्टिविभक्ति प्रथमविभक्ति धनुः उकारान्त
उकारान्त अस्तु तावदेव अस्तु अग्रे गीताञ्जलि भगिनि गत्योः इति अस्ति वा गीताञ्जलि भगिनि अस्तु शोभा भगिनि
गत्योः गतिः गत्योः शुक्ला गतिः श्रेष्ठा गतिः
इति प्रथमविभक्ति अस्तु समीचीनं भगिनि वेणुगोपाल महोदय अग्रिमम्
अस्तु महोदय धृतीनां वामसी तत्र धृतिः इकारान्तस्त्रीलिङ्गः
अस्तु समीचीनं महोदय अस्तु रघुपति महोदय अग्रिमम्
आम् महोदय चम्वा चम्वा चमु त्रिलिङ्ग चमु
चमु अग्रिमपुटे अस्ति महोदय
त्रिलिङ्ग अस्ति त्रिलिङ्ग बहुवचनं चम्वाः चमु चम्वाः ओके एकनिमिषं चम्वाः चमु चम्वाः चम्वः नायकः तिष्ठतुं चम्वा बहुवचन अस्ति बहुवचनमस्ति
चम्वाः इति अग्रिमपुटे पृच्छतु महोदय तत्र कोष्टकमस्ति
आम् महोदय
एकवचने एव इति चमु इति तत्तु चमु इति ऊकारान्त स्त्रीलिङ्गपदम् चमु तत्र त्रयोदशपुटे सर्वाणि
प्रातिपदिकं किं चमूः
ऊकारान्त स्त्रीलिङ्ग शब्द
ऊकारान्त
दीर्घ ऊकारान्त चमू इति स्त्रीलिङ्ग इति अस्ति. अस्तु अग्रे कः वदति? हा वंशीसुधा भगिनी अग्रिमम्.
आं महोदय, ष्टमबिन्दुः मध्ये प्राणः आवेशनीयः. ब्रूहि इति शब्दः, ब्रुवोः इति शब्दः एकवचने अस्ति. ब्रूः तत्तु स्त्रीलिङ्गशब्दः, ऊकारान्त शब्दः अस्ति. षष्टिविभक्तौ ध्रुवोः द्विवचने अस्ति. रूपमस्ति ध्रुवाः ध्रुवोः ब्रूणाम्.
हा समीचीनं भगिनि, धन्यवादः. ब्रू इति विशेषपदम् अस्ति. हा समीचीनं
महोदय.
स्त्रीलिङ्गे इति मन्ये भगिनि. अस्तु अग्रे हा गीताञ्जलि भगिनि वदतु सप्तमम् इदानीं.
क्षम्यतां,
चिन्ता मास्तु भगिनि, चिन्ता मास्तु. हा
वधूनां रक्षणं करणीयं. वधू तु
वधूपदं. हा वधूः इति ऊकारान्त
स्त्रीलिङ्गपदं.
हा अस्तु प्रिया भगिनी अग्रिमम्.
आं महोदय, अष्टमं वा?
अष्टमं सत्यम्.
मातुः कृपया जीवामि. मातुः ऋकारान्त स्त्रीलिङ्गपदं. षष्ठीविभक्ति मातुः मातृभ्यां मातृभ्यः.
षष्ठीविभक्ति
मातुः मात्रोः मातॄणां.
क्षम्यतां, तदपि विभक्तिरूपमेव अस्ति, केवलं षष्ठी नास्ति. तावदेव. अस्तु अग्रे एतावत् कः न उक्तवान्? सर्वे उक्तवन्तः वा? भानुचेतनी महोदय अग्रिमम्.
गणेशः द्वयोः मात्रोः पुत्रः, द्वैमातुरः. अत्र मातृशब्दरकारान्त स्त्रीलिङ्गमहोदय. तत्र मातुः मात्रोः मातॄणां, मात्रोः इति द्विवचनं
अस्ति. तस्य प्रथमविभक्तिरूपं किम् अस्ति?
मातुः.
न एकवचने मातुः अस्ति. प्रथमविभक्तिरूपं किम् अस्ति?
मातोः. माता.
तद् एकवचने. मात्रोः इति द्विवचने अस्ति. प्रथमविभक्तिरूपं किम् अस्ति द्विवचने?
माता, मातरौ, मातरः, मातरः.
हा अतः मातरौ इति. माता, मातरौ, मातरः, मातरौ इति पदं तस्य षष्ठीविभक्ति रूपं भवति मात्रोः इति. खलु?
आं महोदय.
अस्तु हा अग्रे. हा
महोदय, एकः संशयः अस्ति. द्वयोः पदमपि षष्ठीविभक्तौ अस्ति महोदय.
हा किन्तु तद् न कृतवन्तः. द्वे इति पदम् अस्ति, तस्य अथवा द्वे द्वे किमपि पदम् अस्ति तस्य तस्य. हा 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 हा
महोदय. महोदय एकः सन्देहः अत्र. ऊकारान्त स्त्रीलिङ्ग अस्ति. यदा नदी अस्ति तत्र नद्योः नदेः भवति नदेः नदी
नद्याः इति नद्याः भवति भवत्याः.
चमू चम्वाः भवति. ऋस्व अस्ति चेत् एव ओकारः भवति. मत्याः अथवा द्वि द्विरु द्वे रूप रूपे सन् स्तः अत्र तनुः तनोः मते मति मतेः अथवा मत्याः ऊकारान्त तत्र नास्ति ओकाररूप नास्ति सर्वदा
अस्तु अस्तु महोदय इदानीं भवतः प्रश्नः इदानीम् अवगच्छामि तत्र भवतः प्रश्नः एतत् अस्ति वा यथा मतिशब्दस्य रूपद्वयम् अस्ति षष्ठीविभक्ति तादृश स्त्रीलिङ्ग उकारन्त ह्रस्व उकारन्त स्त्रीलिङ्गपदस्य अपि रूपद्वयं भवति न वा इति एव भवतः प्रश्नः खलु
दीर्घ
मतिशब्दस्य किमर्थं रूपद्वयम् अस्ति इत्युक्ते महोदय तत्र मतिशब्द ह्रस्व इकार हरिशब्दवत् अस्ति अथवा कविशब्दवत् अस्ति किन्तु स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गपदम् इति कृत्वा तद् नदी शब्दवत् अस्ति अतः तस्य रूपद्वयं भवति केवलं प्रथमा द्वितीया न केवलम् अहं चिन्तयामि चतुर्थ पञ्च षष्ट सप्त इति खलु तत्र पेज् 198 पश्यतु तत्र एतद् दत्तमस्ति रूपद्वयमस्ति तत्र मतिशब्दवत् यदस्ति तद्वत् एव धेनुशब्दः अपि अस्ति स्त्रीलिङ्गे समीचीनं वा इदानीं वंशीसुता भगिनी द्वि इति अथवा द्वि प्रायशः प्रातिपदिकं द्वि इति अस्ति तस्य पदस्य
द्वि इति पुल्लिङ्गे शब्दः अस्ति न माता इति अस्ति चेत्
द्वि प्रायशः रूपसमानं भवति इति मन्ये भगिनि द्वि इति तत्र षष्टिविभक्तिरूपं प्रायशः समानमेव अस्ति
षष्टि समानमेव अस्ति महोदय परन्तु प्रथमाविभक्तौ द्वि
सत्यं 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 प्रातिपदिकं द्वि इति अस्ति किं महोदय
द्वौ अस्ति द्वौ द्वौ द्वाभ्यां 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 द्वयोः द्वयोः
षष्टिविभक्तिरूपं किमस्ति महोदय
द्वयोः
द्वयोः अतः द्वयोः षष्टिविभक्तिरूपम् अस्ति खलु तदेव अहं
परन्तु प्रथमविभक्ति द्वौ अस्ति
अहम् अस्तु अस्तु महोदय अहं केवलं द्वि इति प्रातिपदिकम् अस्ति द्विपदं प्रातिपदिकम् अस्ति तद् तद् तस्य लिङ्गभेदः अस्ति किन्तु द्वयोः यत् पदं तत्र अस्ति तत्तु षष्टिविभक्तिरूपमेव अस्ति एतत् तदेव अहं वक्तुम् इष्टवान् अस्तु अस्तु अग्रे कः शोभा भगिनी अग्रिमं
दशमं रामः मातॄणां प्रियः पुत्रः अत्र मातॄणां षष्टिविभक्त्या बहुवचनम् अस्ति प्रथमविभक्ति ऋकारान्तस्त्रीलिङ्ग मातृशब्द माता
बहुवचने
माता मातरौ मातरः
मातरः इति प्रथमविभक्तिरूपं समीचीनं भगिनि अस्तु अग्रे नरेश महोदय अग्रिमं
तत्र द्वयोः पङ्क्त्योः मध्ये स्थानं नास्ति पङ्क्त्योः द्विवचनं षष्टिविभक्ति प्रथमविभक्ति पङ्क्ति पङ्क्त्यौ पङ्क्त्यः द्विवचनं पङ्क्त्यौ
एतत् कस्य कविशब्दवत् वा अथवा मतिशब्दवत् वा एतत् पदं
मतिशब्द
स्त्रीलिङ्गपदम् अस्ति पङ्क्तिः समीचीनं महोदय पङ्क्तयोः
तत्तु तत् पङ्क्तिः पङ्क्ति पङ्क्त्यः इति मति मति मतयः न महोदय पङ्क्त्यौ इति भवान् उक्तवान्
अस्तु 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 दीर्घ महोदय
आम् आम् पङ्क्ति पङ्क्ति पङ्क्तय पङ्क्तयः
मति
मतयः
नदी नद्यौ द्विवचन
द्विवचन पङ्क्ति
मतिः मती मतयः इति अस्ति
समीचीनं
धन्यवादः भगिनी वंशीसुधभगिनी धन्यवादः अस्तु इदानीं वंशीसुधभगिनी भवती एव अग्रिमम्
आम् महोदय द्वादशबिन्दु संस्कृते सूक्तीनां महत्त्वम् अस्ति सूक्तीनाम् इति पदं स्त्रीलिङ्गशब्दवत् इकारान्तपदमस्ति षष्ठीविभक्तौ अस्ति बहुवचनरूपं अस्ति इति प्रथमविभक्तौ अस्ति सूक्तिः इति मतिशब्दवत् अस्ति सूक्तिः सूक्ति सूक्तयः
समीचीनं भगिनि अस्तु
षष्ठीविभक्तौ अस्ति सूक्तीनां बहुवचने सूक्त्यां सूक्त्याः सूक्त्योः सूक्तीनां
सूक्त्याः
सूक्त्याः सूक्त्याः सूक्त्योः सूक्तीनां
सूक्तीनां समीचीनं भगिनि
अस्तु
अस्तु अग्रे वेणुगोपाल् महोदय अग्रिमम्
अस्तु महोदय अग्रिमम् इत्युक्ते
त्रयोदश
संस्कृते
त्रयोदश रज्जोः इति अग्रभाग
अस्तु रज्जोः अग्रभागं गृह्णातु गृह्णातु तत्र रज्जोः उकारान्तस्त्रीलिङ्गः अस्ति इति मन्ये
वसुः वसोः इति अस्ति महोदय
रज्जुः
उकारान्त समीचीनं महोदय अहं चिन्तयामि रज्जुः पुल्लिङ्गे अस्ति कोऽपि जानाति वा रज्जुः पुल्लिङ्गपदम् एव खलु स्त्रीलिङ्ग अस्तु अस्तु वेणुगोपाल् महोदय क्षम्यतां रज्जुः स्त्रीलिङ्ग एव अस्ति अस्तु अस्तु धन्यवादः अस्तु समीचीनं इदानीं रज्जोः रज्जुः इति प्रथमविभक्तिरूपं समीचीनम् अस्तु धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनि
महोदय रज्जु उकारान्त धेनुवत् किन्तु धेन् भोः रज् भोः
तत्र तत्र पेज् 198 पश्यतु भगिनि तत्र एतदेव रघुपतिमहोदय पृष्टवान् तत्र रूपद्वयम् अस्ति न वा इति तत्र पेज् 198 पश्यतु तत्र षष्टिविभक्तौ धेन्वाः अथवा धेनोः इति धेन्वोः धेनूनाम् इति
किन्तु त्रयोदशवाक्यं रज्जोः रज्जोः नास्ति
रज्जोः धेनोः इति अस्ति भगिनि ह्रस्व उकारः अस्ति
दीर्घ एव अस्ति रज्जु रज्जु ह्रस्व
ह्रस्व ह्रस्व महोदय ह्रस्व इति मन्ये रज्जुः इति
आञ्जनेयस्य हन्वोः प्रहारः आसीत् हन्वोः पदं हनु पुल्लिङ्ग् पुंलिङ्ग् पदम् उकारान्त पुल्लिङ्ग् पदम् अस्ति महोदय उकारान्त गुरु गुरुवत् शब्द
वचनं
हेन्वोः द्विवचनं
द्विवचनं द्विवचनं हन्वोः द्विवचनम् अस्ति
गुरोः हनोः
हन्वोः समीचीनं भगिनि अपि अन्यत् पदमपि अस्ति तत्र षष्टिविभक्तिरूपं
प्रथमवचन
प्रथमविभक्ति गुरुः गुरु गुरवः हनुः हनु हनवः इति समीचीनं भगिनि अत्र अन्यत् पदमपि अस्ति षष्टिविभक्तौ खलु तस्मिन् वाक्ये
आञ्जनेयस्य
तदपि प्रथमविभक्तौ अस्ति आञ्जनेयः अस्तु
समीचीनं
पुल्लिङ्गे इति
स्त्रीलिङ्गे अस्ति महोदय
अस्तु अस्तु धन्यवादः अस्तु
रूपभेदः नास्ति पुल्लिङ्ग स्त्रीलिङ्गे परन्तु स्त्रीलिङ्ग अस्ति अत्र
स्त्रीलिङ्ग अस्ति अस्तु 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 धन्यवादः अग्रिमं कः
महोदय अहं वदामि प्रयत्नं करोमि मातॄणां वचनानि हिताय एव भवन्ति मातॄणां मातॄणां ऋकारान्त स्त्रीलिङ्गशब्दः षष्टिविभक्ति मातॄणां माता
मातॄणां
मातॄणां षष्टि बहुवचनं
प्रथमविभक्ति बहुवचनं
प्रथमविभक्ति बहुवचनं माता मातरौ मातरः
मातरः समीचीनं महोदय समीचीनं अस्तु धन्यवादः मधुसूदन महोदय समीचीनम् अस्तु इदानीम् अग्रे गच्छामः अग्रे वयं किम्
अन्ये अपि अस्ति महोदय हिताय
इति षष्टि
न षष्टि नास्ति चतुर्थीविभक्ति
अत्र विषयः अस्ति षष्टिविभक्ति इति
आमां
तावत् ओ भवान् चिन्तितवान् यदि अन्यत् विभक्ति अस्ति चेत् तस्य प्रथमविभक्तिरूपं वदतु इति वा
आमां
नास्ति महोदय केवलं षष्टिविभक्तिपदस्य तस्य ज्ञानम् अस्ति न वा तदनन्तरं प्रथमविभक्तौ वदतु इति तावदेव अस्तु इदानीम् अग्रे गच्छामः तत्र कः कः पठति अग्रे अत्र कोष्टकम् अस्ति कोष्टकस्य अधोभागे एतत् सम्भाषणम् अस्ति तदपि करणीयमस्ति अस्तु प्रथमतया पश्यामः तत्र भानुचेतनी महोदय तत्र कोष्टकं पठति वा अग्रिमपुटे पेज् 24
अवधेयं मतिः एकवचनं मत्याः अथवा मतेः द्विवचनं मत्योः बहुवचनं मतीनां तनुः एकवचनं तन्वाः अथवा तनोः द्विवचनं तन्वोः बहुवचनं तनूनां चमूः एकवचनरूपं चम्वाः द्विवचनरूपं शम्भोः बहुवचनरूपं शमूनां माता एकवचनरूपं मातुः द्विवचनरूपं मात्रोः बहुवचनरूपं मातॄणां
समीचीनं महोदय धन्यवादः इदानीं तत्र रूपम् इकारान्त उकारान्त स्त्रीलिङ्गपदं दीर्घ उकारान्त स्त्रीलिङ्गपदं यत् वयं किञ्चित् दृष्टवन्तः पूर्वं तदेव तत् कोष्टके दत्तम् अस्ति अस्तु इदानीम् अग्रे गच्छामः सर्वनामपदानाम् अपि षष्टिविभक्तिरूपम् इदानीं पश्यामः एषः अपि सः इति तादृश पदस्य तत्र
महोदय प्रश्नः अस्ति महोदय
उषा भगिनी वदतु भगिनि
मातुः माता मातुः मात्रोः मातृणां like a pronunciation, how do you pronounce ru matru?
Ha tatra aham chintyami tad dirgha rukarah asti matrunam iti aham tas iti aham uchcharayam tas tasya uchcharanam tadrusham karomi matrunam iti.
रेफा नास्ति तत् स्वरः अस्ति मातॄणां मूर्धन्य ऋकारः अस्ति
मातॄणाम् इति
दीर्घ
दीर्घ मातॄणाम् इति
नाट् दीर्घ
ऊकारः नास्ति मातॄणां तत्र ऋकारस्य दीर्घत्वं भवति
उपरि लैक् तस्य तस्या चला श्रद्धा
एतत् सर्वं यत् शीर्षिका अथवा उपशीर्षिका अस्ति एतत् सर्वं भगवद्गीतायाः श्लोकाः सन्ति एतत् प्रायश एतत् अहम् अत्र लिखितवान् एतत् किं सप्तमाध्यायस्य किमपि अस्ति इति वाक्यम् अस्ति इति मन्ये किन्तु एतत् तद् भगवद्गीतायाः श्लोकम् अस्ति एतत्
इत्युक्ते महोदय
तस्य तस्य अचला श्रद्धा तस्य तस्य अचला श्रद्धा तत् वाक्यस्य अर्थः भगवद्गीतायां द्रष्टव्यम् अस्ति भगिनि इदानीं न स्मरामि किन्तु अग्रे गत्वा एतदेव करणीयमस्ति किन्तु अत्र इदानीम् अहं न स्मरामि भगिनि किन्तु अस्तु अस्तु इदानीं किं कुर्मः तत्र प्रिया भगिनि भवती सम्भाषणं पठितुम् इच्छति वा
महोदय करोमि
अस्तु वंशी सुधा भगिनि भवती अपि प्रिया प्रिया भगिनी पठन्तु तत्र यत् सम्भाषणं तत्र अस्ति तत् पठन्तु प्रिया भगिनी अस्ति
एषा महाभारतप्रदर्शनी एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते
एतस्य नाम किम्
एतस्य नाम धृतराष्ट्रः
एतस्याः नाम किम्
एतस्याः नाम गान्धारी एतयोः पुत्राः एव कौरवाः
एतेषां पाण्डवानां च कः सम्बन्धः
पाण्डवाः दायादाः
तेषाम् एतेषां मध्ये किं प्रवृत्तम्
महत् युद्धं प्रवृत्तं तदेव महाभारतयुद्धं तत्र कृष्णः पाण्डवपक्षे आसीत्
कृष्णः मम प्रियः देवः सः तवापि प्रियः किम्
अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता
रक्षकः वदति भोः कृपया शनैः वदतु युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत्
तथैव भवतु वत्स आवयोः विलम्बः जातः चलतु गच्छाव
धन्यवादः बहु समीचीनम् आसीत् तत्र किं किं षष्ठीविभक्तिरूपं किं किम् आसीत् इति कः वदति उषा भगिनी वदतु पदद्वयं किं किम् अस्ति
पुत्रः एतस्य नाम किम् एतस्य षष्ठीविभक्ति अस्ति माता एतस्य नाम धृतराष्ट्रः एतस्य षष्ठीविभक्ति
अस्ति समीचीनं
पुत्रः एतस्याः नाम किम् एतस्याः
इति षष्ठीविभक्ति
षष्ठीविभक्ति स्त्रीलिङ्ग माता एतस्याः नाम गान्धारी एतस्याः षष्ठीविभक्ति स्त्रीलिङ्ग एतयोः पुत्राः एव कौरवाः एतयोः एतस्याः एतयोः एष एष
द्विवचने अस्ति,
द्विवचने अस्ति.
समीचीनं भगिनि. हा शोभा भगिनि अग्रे.
अग्रे एतेषां पाण्डवानां च कः सम्बन्धः? पाण्डवानां बहुवचने षष्ठीविभक्ति अस्ति.
एतेषामपि
एतेषामपि पाण्डवाः एतेषां दायदाः दायादाः एतेषां षष्ठीविभक्ति अस्ति. तेषाम् अपि एतेषां तेषाम् एतेषां मध्ये किं प्रवृत्तम् अत्र? तेषाम् अपि एतेषां षष्ठीविभक्ति द्वयमपि षष्ठीविभक्ति अस्ति. महत् युद्धं प्रवृत्तं, तदेव महाभारतयुद्धं. तत्र कृष्णः पाण्डवपक्षे आसीत्. महत् युद्धं प्रवृत्तं, तदेव महाभारतयुद्धं. तत् एव पाण्डवपक्षे सप्तमी अस्ति, तत्र षष्ठी नास्ति. कृष्णः मम प्रियः देवः, सा तवापि प्रियः किम्? तत्र षष्ठीविभक्ति नास्ति. कृष्णः मम षष्ठीविभक्ति अस्ति एकवचने. तवापि प्रियः किम्?
तत्र तव अपि षष्ठीविभक्ति अस्ति.
तव अपि
त्वम् इति पदस्य
तव
तव अहं मम इति
तव. हा आं महोदय, तवापि षष्ठीविभक्ति अस्ति. अस्माकं देशे कृष्णः सर्वेषां प्रियः एव, अहं तस्य भक्ता. अस्माकं अस्माकं षष्ठीविभक्ति देशे सप्तमी, सर्वेषां षष्ठीविभक्ति अस्ति. अहं तस्य षष्ठीविभक्ति अस्ति भक्ता. भो कृपया शनैः वदतु युवयोः द्विवचने युवयोः युवयोः षष्ठी अस्ति वा महोदय?
षष्ठी
युवयोः सम्भाषणेन अन्येषां षष्ठीविभक्ति अस्ति. सम्भाषणेन तृतीया विघ्नः भवेत्.
भवेत् इदानीं चिन्तयतु, तत् अन्यत् लकारः अस्ति किन्तु भवेत्.
तथैव भवतु वत्स. आवयोः षष्ठीविभक्ति विलम्बः जातः, चलतु गच्छाव.
समीचीनं भगिनि, अस्तु. तत्र षष्ठीविभक्तिरूपं कुत्र कुत्र भवति इति इदानीं वयं दृष्टवन्तः. तत्र सम्भाषणं सर्वे अवगच्छन्ति वा? कोऽपि प्रश्नः अस्ति वा तत्र?
नास्ति महोदय.
अस्तु, पश्यामः कः. पाण्डवानां पाण्डवाः एतेषां दायादाः. पाण्डवाः अपि कौरवाः, तयोः मध्ये कः सम्बन्धः? तावदेव.
दायादाः इत्युक्ते
अस्तु. अन्य प्रश्नः अस्ति वा तत्र? तत्र किं किम् अस्ति इति षष्ठीविभक्तिरूपं किं किम् अस्ति इति अग्रिमपुटे कोष्टकम् अस्ति. तत्र वेणुगोपाल् महोदय, तत्र अग्रिमपुटे यत् कोष्टकमस्ति तत् पठति वा?
अस्तु महोदय. एतत् पुल्लिङ्गे नपुसकलिङ्गे च श्रीलिङ्गे एकवचनं एतस्य, द्विवचनं एतयोः, बहुवचनं एतेषां. श्रीलिङ्गे एतस्याः एकवचनमस्ति, द्विवचनं एतयोः बहुवचनं एतासां तद् पुल्लिङ्गे नपुंसकलिङ्गे च एकवचनं तस्य द्विवचनं तयोः बहुवचनं तेषां स्त्रीलिङ्गे तस्याः द्विवचनं तयोः बहुवचनं तासां अस्मत् त्रिषु लिङ्गेषु समानम् एव अस्ति. एकवचनं मम, द्विवचनं आवयोः, बहुवचनं अस्माकम् इति अस्ति. उष्मत् त्रिषु लिङ्गेषु समानमेव अस्ति. एकवचनं तव, द्विवचनं युवयोः, बहुवचनं उष्माकम्.
हा, युष्माकम् इति अस्ति. अस्तु, तत्र इदानीं सर्वनाम शब्दानां षष्टिविभक्तिरूपं दृष्टवन्तः. अस्तु, तदपि तस्य प्रयोगमपि इदानीं वयं कर्तुं शक्नुमः. अस्तु, इदानीं पश्यामः तत्र अग्रिम अभ्यासः यदस्ति तत्र सर्वत्र षष्टिविभक्तिरूपस्य प्रयोगः एव. अस्तु, मधुसूदन महोदय, अग्रिम अभ्यासः तत् पठित्वा प्रथमं करोति वा?
आवरणे विद्यमानयोः शब्दयोः सहायेन वाक्यानि रचयत. उदाहरणं, वसुदेवः देवकी, पतिः पत्नी. वसुदेवस्य पत्नी देवकी. वसुदेवस्य पत्नी देवकी. देवक्याः पतिः वसुदेवः. बलरामः.
तत्र एकमेव वाक्यं करोतु, तत्र अन्यत् वाक्यं, वाक्यद्वयं कर्तुं शक्नुमः. एकमेव वदतु, अन्यत् वाक्यम् अन्य कोऽपि करोति.
महोदय, बलरामः दुर्योधनः. बलरामस्य शिष्यः दुर्योधनः.
अस्तु महोदय, समीचीनम्. अस्तु, नरेश महोदय, अन्यत् वाक्यं तत्रैव.
अन्यत् वाक्यं, दुर्योधनस्य गुरुः बलरामः.
हा, समीचीनं महोदय. अस्तु, इदानीं भानुचेतनी महोदय, अग्रिमम् एकमेव वाक्यम् अत्र.
हरिः लक्ष्मीः, पतिः पत्नी. हरेः पत्नी लक्ष्मीः.
हा, समीचीनं महोदय. अस्तु, शोभा भगिनी, अत्र अग्रिम अन्यत् वाक्यम् अत्र.
लक्ष्म्याः पतिः हरिः.
हा, लक्ष्म्याः पतिः हरिः, समीचीनम्. रघुपति महोदय, अग्रिमम्.
हा, जमदग्नि, जमदग्नेः इकारान्त अस्ति. जमदग्नेः पत्नी रेणुका.
समीचीनं महोदय. हा, इदानीं गीताञ्जलि भगिनी, तत्र
रेणुकायाः
पतिः जमदग्नि. जमदग्निः, समीचीनं भगिनि. प्रिया भगिनी, अग्रिमम्.
महोदय, अभिमन्युः सुभद्रा, पुत्रः माता. अभिमन्योः पुत्रः माता सुभद्रा.
समीचीनं भगिनि. हा, अस्तु, वंशीसुता भगिनी, अग्रिमं तस्मिन् एव तत्र अन्यत् वाक्यं.
सुभद्रायाः पुत्रः
अभिमन्युः. समीचीनम्. अस्तु, अस्तु, इदानीं कः न कृतवान् सर्वे
कृतवान्.
उषा भगिनी, हा, क्षम्यतां भगिनी. अस्तु अस्तु, उषा भगिनी, हा, भवत्याः नाम अत्र न पश्यामि खलु, अतः हा, क्षम्यतां. भवती एव अग्रिम अभ्यासम् आरम्भं करोतु भगिनी. हा,
आवरणे विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण
रिक्तस्थानानि पूरयत. उदाहरणं भारतस्य राजधानी देहली. भारतं राजा धृतराष्ट्रः हस्तिनापुरं. हस्तिनापुरस्य राजा धृतराष्ट्रः.
समीचीनं भगिनि, समीचीनं.
रविः रविः पुत्रः कर्णः. रवेः पुत्रः कर्णः.
समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं मधुसूदन महोदय अग्रिमं.
महोदय, ध्वनिः ध्वनिः मधुरः वेणुः. वेणु
ध्वनिः
वेणु उकारान्त स्त्रीलिङ्गशब्दः.
उकारान्तपुंलिङ्गशब्दः.
ध्वनिः
गुरुः अस्ति चेत् किं भवति षष्ठीविभक्तिरूपं?
गुरोः.
वेणुः अस्ति चेत्
वेणोः.
तत्र नकारः अस्ति महोदय, तत्र वेणुः न वेणुः, नकारः वेणुः. वेणोः. इदानीं षष्टि वेणोः.
वेणोः ध्वनिः मग्रः.
समीचीनं महोदय. అస్తు అగ్రే భానుచరణ్,
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे.
अस्तु, रघुपति महोदय अग्रिमम्.
हाँ महोदय, मन प्रशांत भवति तदेव. मुनिः, मुनिः उकार उकारान्त पुल्लिङ्ग अस्ति,
अतः
इकारान्त पुल्लिङ्ग अस्ति, इकारान्त पुल्लिङ्ग अस्ति. मुनेः मनः प्रशान्तं भवति.
समीचीनं महोदय. गीताञ्जलि भगिनी अग्रिमं.
लता, लतायाः शीतला भवति.
समीचीनं भगिनि. प्रिया भगिनि अग्रिमम्.
आं महोदय,
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. ద పర్సన్
ప్రియా భగిని వదిత.
గురుః అర్జునః గురోః ప్రియః.
అర్జునః గురోః ప్రియః. సమీచీనం భగిని. శోభా భగిని అగ్రిమం.
मनसस्तु परा बुद्धिः यो परतस्तु सः बुद्धिः. मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः.
अस्तु, समीचीनं. नरेश महोदय.
महोदय, माता षष्ठीविभक्ति, मातुः मातुः स्नेहः
अतुलः. समीचीनं महोदय. वेणुगोपाल महोदय उक्तवान् वा? वंशीसुधा भगिनी न कृतवती इति. वेणुगोपाल महोदय उक्तवान् वा भवान्? वदतु महोदय.
मूल्यम् अधिकं वस्तु, वस्तोः मूल्यम् अधिकम्.
समीचीनं महोदय. अस्तु, वंशीसुधा भगिनी इदानीम् अग्रिमं अभ्यासं.
वस्तु
नपुंसकलिङ्गमस्ति या पुल्लिङ्गे?
वस्तु वस्तु क्षम्यतां, क्षम्यताम्, अहं किमपि न चिन्तितवान्. क्षम्यतां, मम दोषः. धन्यवादः. वस्तु इति किम् अस्ति तस्य षष्ठीविभक्ति?
वस्तुनः.
वस्तुनः. धन्यवादः.
किन्तु तत्र तत्र एकवचनम् इति अस्ति.
वस्तु
अस्तु
मूल्यं मूल्यम् इति अस्ति महोदय, अतः तत्र मूल्यम् अधिकम् इति अस्ति खलु?
अस्तु,
तद् एकवचने
मूल्यम् इति बहुवचनं, तत्कारणेन वस्तोः इति निष्पन्नं।
किन्तु तत्र किं भवति, वस्तु इति पदस्य षष्टिविभक्तिरूपं कुत्र वयं दृष्टवन्तः? एतत् षष्टिविभक्तिरूपं, हा तत्र पेज् 23 पश्यतु, तत्र किम् अस्ति, मधु मधुनः मधुनोः मधूनाम् इति अस्ति खलु?
अस्तु,
तस्य प्रातिपदिकं हलन्तम् अस्ति अतः एव उकारान्त न भवति, उकारान्त एव अतः
तदेव अहमपि न चिन्तितवान्, क्षम्यतां। हा तत्र पेज् 13 पश्यतु, तत्र अन्तिमपदमस्ति वस्तु इति, उकारन्त नपुंसकलिङ्गशब्दः अस्ति, वस्तु वस्तूनि वस्तूनि इति।
धन्यवादः,
मम दोषः एव, अहं न। अस्तु, हा अस्तु, वंशीसुतभगिनी इदानीं।
आं महोदय, यथोदाहरणं वाक्यानि रचयत्, उदाहरणमस्ति वसुदेवस्य पुत्रः कृष्णः, द्वितीयमस्ति वसुदेवस्य, अनन्तरं अर्जुनः सारथि, अर्जुनः अर्जुनस्य सारथि कृष्णः,
अर्जुनस्य सारथिः कृष्णः, समीचीनं भगिनि, कृष्णः समीचीनं भगिनि। इदानीं गीताञ्जलि भगिनि।
मथुरायाः राजा कृष्णः,
हा समीचीनम्। उषा भगिनि अग्रिमं।
रुक्मिण्याः पतिः कृष्णः,
समीचीनं भगिनि। हा अस्तु, प्रिया भगिनि।
देवक्याः पुत्रः कृष्णः,
हा समीचीनम्। हा अस्तु, मधुसूदन महोदय।
मीरायाः स्वामी कृष्णः,
हा समीचीनम्। भानुचैतन्य महोदय अस्ति वा? भानुचैतन्य महोदय,
महोदय श्रोतुं शक्यते वा महोदय?
हा इदानीं श्रोतुं, तत्र पूर्वं किञ्चित् हा किञ्चित्
इदानीम् अन्म्यूटेड् इति श्रुतवान् महोदय।
हा हा इदानीं वदतु, वदतु महोदय। हा
कुचेलस्य मित्रं कृष्णः,
हा कुचेलस्य मित्रं कृष्णः, समीचीनं महोदय। कः रघुपति महोदय?
मीरा आकारं
अन्यत् बलरामः इति इदानीम् अस्ति महोदय, मीरा कृतं, कुचेलः अपि कृतम्, इदानीं बलरामः तदेव
बलरामस्य सहोदरः कृष्णः,
कृष्णः इति अस्ति। हा समीचीनम्। अस्तु इदानीं कः न उक्तवान्, नरेश महोदय अग्रिम अभ्यासः भवान् करोतु, आरम्भं
करोतु। आं महोदय, यथोदाहरणं वाक्यानि रचयत, हिमालयः गिरिः मेरुः, हिमालयस्य गिरिः मेरुः।
न न महोदय, न न तत्र उदाहरणं पश्यतु, तत्र
उदाहरणं गिरेः नाम हिमालयः, गिरेः नाम मेरुः
इति, तत्र यत् मध्ये यत् पदं मध्ये अस्ति तद् तद् उपयुज्य वयं वाक्यद्वयं कर्तुं शक्नुमः।
इदानीं पत्रिका चन्दमामा,
तत्र एकं वाक्यं वदतु तत्र।
पत्रिकायाः नाम सन्देशः,
हा पत्रिकायाः नाम सन्देशः, समीचीनं महोदय। गीताञ्जलि भगिनि अग्रिमम्।
आ, ब्रह्मवादिनी
न न तत्र एव अन्यत् अपि कर्तुं शक्नुमः
पत्रिकायाः नाम चन्दामामा
चन्दामामा समीचीनं भगिनि अस्तु शोभा भगिनी अग्रिमं
ब्रह्मवादिनी ब्रह्मवादिन्याः नाम गार्गी
गार्गी समीचीनं वेणुगोपाल् महोदय ब्रह्मवादिनी इति उपयुज्य अन्यत् वाक्यं
अस्तु अस्तु ब्रह्मवादिन्याः नाम मैत्रेयी
मैत्रेयी समीचीनं प्रिया भगिनी
आं महोदय वाद्यं वा एतत् नपुंसकलिङ्गपदमस्ति खलु वाद्यस्य नाम पणवः
समीचीनं भगिनि वंशीसुता भगिनि अन्यत् वाक्यम् अत्र
वाद्यस्य नाम गोमुखः
वाद्यस्य नाम
नाम गोमुखः
गोमुखः समीचीनम् अस्तु शोभा भगिनि अग्रिम अभ्यासं करोति वा
आम् महोदय यथोदाहरणं वाक्यानि रचयत उदाहरणं सेने सेनयोः मध्ये युद्धं भवति हस्तौ हस्तयोः संयोजनेन अञ्जलिः भवति
समीचीनं भगिनि तत्र बाणचैतन्य महोदय अग्रे
सः गुरोः आशीर्वादं प्राप्नोति
सः गुरोः आशीर्वादं प्राप्नोति समीचीनं महोदय रघुपति महोदय
भ्रातरौ कलहेन भगिनी खिन्ना भवति एकनिमिषं भ्रातरौ द्विवचनार्थी भ्रातरयोः कलहेन भगिनी खिन्ना भवति भ्रातरयोः करेक्ट् सम्यक्
पित्रोः पितॄणाम् इति अस्ति महोदय
सोरि भ्रातरौ इति द्विवचनमस्ति द्विवचन भ्रात्रोः भ्रात्रोः कलहेन भगिनी खिन्ना भवति
भ्रातरौ द्विवचने अस्ति भ्रात्रोः कलहेन भगिनी खिन्ना भवति समीचीनं समीचीनं वा संशयः अस्ति वा महोदय तत्र
न महोदय मया एव संशयः आसीत् मम एव संशयः आसीत्
पिता इति पितुः पित्रोः पितॄणाम् इति अस्ति माता मातुः मातृः मातॄणाम् इति तादृश एव अत्र भ्रात्रोः अपि अस्ति
द्विवचनोः
वेणुगोपाल् महोदय अग्रिमं
भ्रात्रोः कुत्र महोदय अस्तु श्रीकृष्णः सेने मध्ये अर्जुनस्य रथं स्थापयति कृष्णः श्रीकृष्णः सेनयोः मध्ये अर्जुनस्य रथं स्थापयति
समीचीनं श्रीकृष्णः सेनयोः मध्ये अर्जुनस्य रथं स्थापयति सेनद्वयम् अस्ति सेने इति द्विवचने अस्ति समीचीनं वंशीसुधा भगिनी
आं महोदय षष्टम भगिन्यौ निवासः क्षम्यता पञ्चमबिन्दु अस्ति अद्य कवि सम्मानकार्यक्रमम् अस्ति कवि इति शब्दः अस्ति पुल्लिङ्गे शब्दः हरिवत् महोदय कविः पुल्लिङ्गे शब्दः कविः कवि इति द्विवचने अस्ति तत्तु कारणेन कव्योः अद्य कव्योः सम्मानकार्यक्रमम् अस्ति.
अद्य कव्योः सम्माननकार्यक्रमः
अस्ति.
अस्ति, समीचीनं भगिनि. अस्तु, प्रिया भगिनी अग्रिमम्.
मम भगिन्यौ निवासः ग्रामे अस्ति. मम भगिन्योः निवासः ग्रामे अस्ति.
हा, समीचीनम्.
इकारान्त स्त्रीलिङ्गपदं
भगिनी. समीचीनं भगिनी. अस्तु, हा, अस्तु. मधुसूदन महोदय अग्रिमम्.
कौरवाः पिता धृतराष्ट्रः. कौरवानां पिता धृतराष्ट्रः.
तद् दृष्ट्वा अग्रिमं करोतु.
अस्तु, कौरवः पिता. अस्तु, पाण्डवाः रक्षकः कृष्णः. पाण्डवाः रक्षकः कृष्णः पाण्डवानां
रक्षकः कृष्णः. समीचीनं महोदय. पाण्डवानां रक्षकः कृष्णः इति. उषा भगिनी अग्रिमम्.
भारतीयाः धर्मः सनातनः. भारतीयानां धर्मः सनातनः.
हा, समीचीनं भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनी.
वयं भाषा संस्कृतं
सर्वनामपदम् इदानीमेव कृतवन्तः वयं.
मम
इति
एकवचनं. मम आवयोः अस्माकं. वयं अस्माकं भाषा संस्कृतं.
समीचीनं भगिनि. हा, वयम् इति पदस्य षष्ठी विभक्तिरूपम् अस्ति अस्माकम्. अतः वाक्यं भवति अस्माकं भाषा संस्कृतम्. समीचीनं भगिनि. हा, अग्रे भानुचेतनी महोदय.
नदीनां जीवनं परोपकारार्थं.
परोपकारार्थं, समीचीनं महोदय. हा, अस्तु, कः न कृतवान् अथवा कः न नरेश महोदय वदतु. हा,
भाषाः जननि संस्कृतं. भाषाणां जननि संस्कृतं.
संस्कृतं, समीचीनं महोदय. हा, अस्तु, इदानीं कक्षा कार्यम् अस्तु, उच्चैः पठत. अस्तु, तद् जानीत च. अस्तु, तद् त्यजामः, अग्रिम अभ्यासं पश्यामः. अस्तु, रघुपति महोदय अग्रिमम् अभ्यासः तत् पठित्वा प्रथमं करोति वा?
आम् महोदय. आवरणे विद्यमानस्य शब्दस्य षष्ठीविभक्तिरूपेण रिक्तस्थानानि पूरयत. मयूराः गर्जनम् इच्छन्ति. मयूराः मयूराः मेघानां गर्जनम् इच्छन्ति.
हा, मयूराः मेघानां गर्जनम् इच्छन्ति. समीचीनं महोदय. हा, अस्तु, तत् वंशीसुधा भगिनी अग्रिमम्.
आं महोदय, पण्डितः नाटकानि रचनां करोति. नाटकानि इति नाटकम् इति अस्ति. नाटकानि इति नपुंसकलिङ्गे अस्ति महोदय. तत्तु पण्डितः नाटकानां रचनां करोति.
हा, पण्डितः नाटकानां रचनां करोति. समीचीनं भगिनि. गीताञ्जलि भगिनी अग्रिमम्
बृहस्पतिः देवाः गुरुः अस्ति बृहस्पतिः देवानां गुरुः
गुरुः अस्ति समीचीनं भगिनि हा अग्रे शोभा भगिनी
सज्जनाः सूक्तयः स्मरणं कुर्वन्ति सूक्तयः रामः पदवत् अस्ति वा महोदय
सूक्तिः इति पूर्वमपि आगतम् अस्ति आसीत् सः उक्तवती सूक्ति हा संस्कृते सूक्तीनां महत्त्वम् अस्ति इति गृहपाठे
सज्जनाः सूक्तीनाम् अस्ति सज्जनाः सूक्तीनां स्मरणं कुर्वन्ति धन्यवादः
बहु समीचीनमस्ति भगिनि तदेव उदाहरणम् आसीत् संस्कृते सूक्तीनां महत्त्वम् अस्ति इति हा बहु समीचीनम् अस्तु हा अग्रे गीताञ्जलि भगिनी पठितवती अस्तु नरेश महोदय
गोपालकः धेनुवः बहुवचनमस्ति धेनूनां गोपालकः धेनूनां पालनं करोति
हा समीचीनं महोदय अस्तु प्रिया भगिनी
पिता वस्तूनि गणनां करोति पिता वस्तूनां गणनं करोति
गणनाम् इति अस्ति
गणनां क्षम्यतां गणनां करोति
गणनां करोति मधुसूदन महोदय
वयं कार्यकर्तरः कार्यकर्तारः वचनं शृणुमः वयं कार्यकर्तॄणां वचनं शृणुमः
समीचीनं महोदय कार्यकर्तॄणां शृणुमः समीचीनं महोदय समीचीनं वंशीसुधा भगिनी अग्रे
अहं गुरवः सेवां करोमि गुरवः इति गुरुशब्दवत् बहुवचनरूपम् अस्ति गुरवः इति कारणेन अहं गुरूणां सेवां करोमि
सभायां वाद्यानि ध्वनिः अधिकः अस्ति वाद्यं महोदय वाद्यं नपुंसकलिङ्गं
नपुंसकलिङ्गं वाद्यानि इति नपुंसकलिङ्गं सत्यं महोदय
सभायां वाद्यानां ध्वनिः अधिकः अस्ति
समीचीनं महोदय
वाद्यानां ध्वनिः अधिकः अस्ति
समीचीनं महोदय
वाद्यानां
नकारः एव णत्वं नास्ति अत्र वेणुगोपाल महोदय भवान् न उक्तवान् खलु अस्तु एतत् करोतु महोदय
अस्तु माता आपत्यानि अपत्यानि पालनं करोति माता अपत्यानां पालनं करोति
अपत्यानां
अपत्यानां पालनं करोति
समीचीनं महोदय
नपुंसकलिङ्गमेव
चिन्तयामि अपत्यानि अस्तु गीताञ्जलि भगिनी अग्रिमम् अभ्यासं तत् पठति वा
आं महोदय कोष्ठकैः उचितपदैः रिक्तस्थानानि पूरयत
वयं प्रतिदिनम् अश्वानां जीवनचरितं पठामः वयं प्रतिदिनम् अश्वानां
कस्य जीवनचरित्रं पठामः अश्वानां नियमानां महापुरुषाणां गुरूणां नदीनां
वयं प्रतिदिनं महापुरुषाणां जीवनचरितं पठामः
हा समीचीनं वयं प्रतिदिनं महापुरुषाणां जीवनचरित्रं पठामः समीचीनं भगिनि हा अस्तु अग्रे तत्र हा उषा भगिनी अग्रिमं
तेषां कवीनां कविताः रमणीयाः सन्ति
तेषां कवीनां कविताः रमणीयाः सन्ति समीचीनं भगिनि हा अस्तु प्रिया भगिनी अग्रिमं
विवेकानन्दस्य वचनानां पठनेन स्फूर्तिः लभ्यते
हा समीचीनं भगिनि हा वचनानां समीचीनं भगिनि हा अस्तु अग्रे रघुपतिमहोदय अग्रिमम्
एकनिमिषं कुत् वयं कुत्र स्मः
पेज् 28 मध्ये सप्तम
सप्तम हा हा
तत्र
ऐक्यं
तयोः इति वाक्यं चतुर्थवाक्यं विवेकानन्दस्य तद् वाक्यं कृतं तदनन्तरं तस्य अग्रिमवाक्यं तयोः इति दृश्यते वा महोदय
आं महोदय तयोः मित्रयोः मैत्री जगत्प्रसिद्धा
हा तयोः मित्रयोः मैत्री जगत्प्रसिद्धा समीचीनं महोदय हा वंशी सुधा भगिनी
आं महोदय अनुसरेण जीवने अनुशासनं भवति नियमानाम् अनुसरेण जीवने अनुशासनं भवति
नियमानाम् अनुसरणेन जीवने अनुशासनं भवति समीचीनं भगिनि हा अस्तु तत्र मधुसूदन महोदय
मध्ये सहकारभावः आवश्यकः मध्ये सहकार मित्रयोः मित्रयोः मध्ये सहकारभावः
आवश्यकः तदपि अत्र एकमेव इति नास्ति खलु एतदपि स्वीकर्तुं शक्नुमः किन्तु अस्तु हा कार्यकर्तॄणाम् इति एव तदेव वदतु महोदय तदपि समीचीनं
कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः
आवश्यकः अस्तु हा शोभा भगिनी उक्तवती वा अत्र
न महोदय
ऐक्यं
न सुलभं मतीनां ऐक्यं न सुलभं
न सुलभं समीचीनं हा अस्तु वंशी सुधा भगिनी तत्र उक्तवती वा भवती उक्तवती सा खलु अस्तु कः न उक्तवान् भानुचेतनी महोदय उक्तवान् नरेश महोदय न उक्तवान् हा नरेश महोदय वदतु
अद्यत्वे जलं कलुषितं भवति अद्यत्वे नदीनां जलं कलुषितं भवति
हा समीचीनं महोदय हा अस्तु अद्यत्वे इदानीम् अद्यत्वे अधुना इति हा दीस् डेस् अद्यत्वे
अद्यत्वे
नदीनां जलं
कलुषितं
डर्टी
भगिनी सन्ति.
कः न उक्तवान्, का न उक्तवती एतावत् अस्मिन्? प्रिया भगिनी उक्तवती वा?
आं महोदय, अहं कृतवती.
अस्तु, कः न अस्तु, कः न कृतवान्? उषा भगिनी उक्तवती वा?
आं महोदय.
उषा भगिनी उक्तवती, भानुचैतन्य महोदय उक्तवान् इति मन्ये. अस्तु, पुनरेकवारं कुर्मः. चिन्तयामि कोऽपि न, हा तत्र प्रायशः एकः कोऽपि अस्ति यः न उक्तवान् एतद् अभ्यासे. अस्तु, सर्वे उक्तवन्तश्चेत् सुलभः एव. अस्तु, हा गीताञ्जलि भगिनी. अस्तु, हा अस्तु महोदय, एतदेव अहं चर्चा तस्य अन्वेषणमेव कृतवान्. अस्तु, भानुचेतन महोदय वदतु. हा
किं महोदय? दशम
अश्वपालकः, अश्वपालकः नवमः,
अश्वपालकः नवमः. अश्वपालनकः, अश्वपालकः पालनं करोति.
कस्य पालनं करोति अश्वपालकः?
अश्वपालकः अश्वानां पालनं करोति.
अश्वानाम्, अश्वानाम्, अश्वानां
पालनं
करोति. अग्रिममपि करोतु महोदय, अन्यत् कोऽपि नास्ति, सर्वे कृतवन्तः इति.
आज्ञा पालनीया, गुरूणाम् आज्ञा पालनीया.
हा, गुरूणाम् आज्ञा पालनीया, समीचीनं महोदय. अस्तु, तत्र बहु किं वयम् अद्य कृतवन्तः, तत्र षष्टिविभक्तिरूपस्य सर्वनाम शब्दानां षष्टिविभक्तिरूपं कीदृशं भवति इति दृष्टवन्तः. अपि नूतन तत्र इकारान्त उकारान्त तादृश शब्दानामपि षष्टिविभक्तिरूपं ज्ञातवन्तः. अपि किञ्चित् अभ्यासम् अपि कृतवन्तः, प्रयोगः कृतवन्तः. अग्रे गत्वा तत्र षष्टिविभक्ति, तत्र अग्रे किं पुटद्वयम् अस्ति, तदनन्तरं पुरतः पृष्ठतः तत्रापि षष्टिविभक्तिरूपमेव तत्रापि आगच्छति. अस्तु, प्रश्नः अस्ति वा एतावत्
महोदय? सेवेन्थ् चाप्टर् एकविंशति श्लोकः अस्ति महोदय, तस्य तस्याचलं श्रद्धां.
हा अस्तु, सेवेन्थ् चाप्टर् 21st श्लोकः इति वा?
आं महोदय.
हा, धन्यवादः भगिनि, धन्यवादः, धन्यवादः. अस्तु,
आवरणे, आवरणे इत्युक्ते
कुत्र महोदय? कुत्र?
आवरणे,
वितिन् ब्राकेट्स्, आवरणे इत्युक्ते वितिन् आवरण, आवरणम् इति प्रायशः नपुंसकलिङ्गे अस्ति, किन्तु आवरणे सप्ति सप्तमी विभक्तिरूपम् अस्ति. आवरण इस् किम् अस्ति, तद् ओब्स्टकल् अथवा लिमिट् किमपि अस्ति, किन्तु अत्र ब्राकेट् इति भवति. एन्क्लोजर्, एन्क्लोजर् इति अस्ति. हा, एन्क्लोजर् इति अस्ति. धन्यवादः भगिनि. हा, आवरणम् इति एन्क्लोजर्, तत्र आवरणे इन् दि एन्क्लोजर् और् ब्राकेट्. विद्यमानस्य शब्दस्य तदपि षष्टिविभक्ति अस्ति. हा, पूर्वमपि अन्यत् उदाहरणे अपि वयं षष्टिविभक्तिरूपं दृष्टवन्तः. हा, किन्तु हा अस्तु, अन्यप्रश्न अस्ति वा? अस्तु अस्तु, विरमामः, अग्रिमवर्गे मिलामः. अहं गृहपाठमपि ध्वनिमुद्रणं तस्य ईमेल् प्रेषयामि. अस्तु, सर्वेभ्यः नमस्कारः.
धन्यवादः,
धन्यवादः महोदय.
नमस्कारः.